एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा उपराष्ट्रपतिः रामसहाय प्रसाद यादवः निगदति निर्वाचनस्य कृते शान्तिपूर्णं भयरहितं च वातावरणं निर्मातुं संचारमाध्यमानां भूमिका महत्वपूर्णा भवति। नेपाल टेलिभिजनस्य एकचत्वारिंशत्तमस्य वार्षिकोत्सवस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते समारोहे उपराष्ट्रपतिः यादवः समावेशितायाः समानावसरस्य च कृते सर्वेषां प्रतिनिधित्वेन भूमिका निर्वोढव्या इति संचारमाध्यमान् अनुरुणत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिवः लक्ष्मी कुमारी बस्नेतः सार्वजनिक सेवा प्रसारणेन तथ्यपूर्णं समाचारं सम्प्रेष्य सुशासनस्य प्रवर्धनाय भ्रष्टाचारस्य नियन्त्रणाय च यूनां याचनां सम्बोधयितुं यत्नः करणीया इति प्रावोचत्। सार्वजनिक सेवा प्रसारणस्य कार्यकार्यध्यक्षः डा महेन्द्र विष्टः राज्येन प्रदत्तं दायित्वं पूरयितुं सार्वजनिक सेवा प्रसारणेन अन्तर्राष्ट्रियाभ्यासस्य राष्ट्रिय आवश्यकतायाः अनुसारेण च नागरिकान् केन्द्रे निधाय कार्यं विधीयते इति प्रतिबद्धताम् अभिवेनक। सार्वजनिक सेवा प्रसारणस्य निमित्त प्रशासकीयाधिकृतः विष्णुराम नेउपाने सार्वजनिक सेवा प्रसारणेन प्रसारिताभि सामग्रीभि नेपालस्य बहुभाषिकस्य बहुसांस्कृतिकस्य च समाजस्य प्रतिनिधित्वं विधीयमानमस्ति इति अगदत्। कार्यक्रमे नेपाल टेलिभिजने दीर्घकालं यावत् योगदानं विहितवन्तः कर्मचारिणः दीर्घ सेवा पदकेन सर्वोत्कृष्टः संवाददातारश्च पुरस्कारेण सम्मानिताः आसन्। नेपाल टेलिभिजन प्रसारणेन देशस्य प्रतिशतं द्वापञ्चाशति भूभागेष् जनसंख्या दृशा प्रतिशतं द्वासप्तत्यांश जनेष् प्रसारण सेवा प्रापिता अस्ति। प्रतिदिनं सप्तष् भाषास् समाचार प्रसारणं पञ्चविंशत्यां भाषास् साप्ताहिक कार्यक्रमाणां प्रसारणं च विधीयमानमस्ति। एतदतिरिक्तं द्वयोः भाषयोः साप्ताहिक रूपेण समाचार प्रसारणं विधीयमानं वर्तते। निर्वाचनायोगेन आचार संहितायाः उल्लंघनस्य कार्यं नियन्त्रयितुं तीव्ररूपेण स्वस्य गतिविधयः अग्रे वर्धिताः वर्तन्ते। आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितं प्रतिनिधिसभायाः सदस्यानां निर्वाचनं स्वच्छं निष्पक्षं विश्वसनीयं पारदर्शी च विधातुं एतद् विक्रमवर्षीय निर्वाचन आचार संहिता क्रियान्विता अस्ति। आचार संहितायाः पूर्णतः पालनायै आयोगेन सम्बद्धाः सर्वे पक्षाः ध्यानाकृष्टाश्च वर्तते। केन्द्रीयाचार संहितानुगमन समितौ प्राप्तानां निवेदनानां सूचनायाश्च आधारेण अधुनावधि राजनीतिकदलानि प्रत्याशिनः संस्थाश्चेति कृत्वा एकविंशत्ये निकायेभ्य स्पष्टीकरणानि स्पृष्टानि वर्तन्ते। निर्वाचनायोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते विभिन्नानां जनपदानां निर्वाचनक्षेत्राणां निदर्शनमतपत्राणि सार्वजनीकृतानि सन्ति। आयोगेन सप्तानामेव प्रदेशानां क्षेत्राणां निदर्शनमतपत्राणि सार्वजनीकृतानि वर्तन्ते। तत्र एकनिर्वाचनक्षेत्रयुतानां जनपदानां कृते अनेकैः निर्वाचनक्षेत्रैः विशिष्टानां जनपदानां कृते च पृथक् पृथक् निदर्शनमतपत्राणि सार्वजनीकृतानि वर्तन्ते। निदर्शनमतपत्राणि मतदातृशिक्षायाः कृते प्रयोक्ष्यन्ते। निर्वाचनायोगस्य प्रवक्तुः नारायण प्रसाद भट्टराय इत्यस्य अनुसारेण प्रत्याशिनां संख्यायाः आधारेणापि निदर्शनमतपत्राणि निर्मितानि सन्ति। नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा कथयति परिवर्तितं कांग्रेस दलं देश परिवर्तनस्य संकल्पेन अग्रे वर्धितं वर्तते। नेपाली कांग्रेस दलस्य काष्ठमण्डपस्य चतुर्थ निर्वाचन क्षेत्रेण ह्य आयोजिते कार्यक्रमे सभापति थापा कांग्रेस दलं नूतन चिन्तनेन संकल्पेन च सह अग्रे वर्धितमस्ति। नेतृभ्यः कार्यकर्तृणां सुदृढीकरणस्य अभियानं प्रारब्धं च वर्तते इति अवदत्। लोकतन्त्रस्य सामाजिक न्यायस्य च विषये नेपाली कांग्रेस दलेन केनापि सह संविधान न करिष्यते इति चर्चयन् सभापतिः थापा विशेष महाधिवेशनेन दलाभ्यन्तरे समूहोपसमूहानां राजनीतिः समाप्ता अस्ति इति उदैरयत्। नेपाली कम्युनिष्ट दलस्य संयोजक पुष्पकमल दाहाल प्रचण्ड वामदलानाम् एकता अद्यतनी आवश्यकता अस्ति तेन्यश्चिनोति। सोलुखुम्बु काष्ठमण्डप सम्पर्क समन्वय समित्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे संयोजक प्रचण्ड राष्ट्रिय स्वाधीनताया रक्षणाय वैदेशिक षड्यन्त्रस्य पराजयस्य च कृते नेपाली कम्युनिष्ट दलम् संघटितमस्ति इति समस्पष्टयत्। पौष शुक्ल पूर्णिमात प्रारब्ध स्वस्थानी व्रत प्रकल्प अद्य माघ शुक्ल पूर्णिमायां पूर्णतां याति। अद्य माघ शुक्ल पूर्णिमायां भक्तजन मध्याह्ने पूजां विधाय व्रतस्यास्य समापनं विधीयते। काष्ठमण्डपे साखु नामके स्थाने शाली नद्यां पारम्परिणा माधव नारायण मेलापि एकमासानन्तरं अद्यैव परिसमाप्यते। गतस्य पौषमासस्य एकोनविंश दिवसात् पौष शुक्ल पूर्णिमातः भगवत्याः सुस्थानी देव्याः एकमासात्मको व्रतः प्रारब्ध आसीत्। पुरा देवाधिदेवं महादेवं पतित्वेन वरितु कामया त्यक्ता हारया पार्वत्या वालुकायाः शिवलिङ्गं निर्माय शिवपूजनं कृतं। तस्य प्रभावेण सा सर्वभूतपतिं पशुपतिं पतिम् अवापेति वृत्तान्तः स्वस्थानी व्रतस्य महत्वागानावसरे चर्चितो वर्तते। गौरीशंकरयोः मेलनम् अनुलोक कल्याणार्थं पार्वत्या ऋषिभिश्च इदं व्रतं प्रचारितमिति जनविश्वासो वर्तते। स्वास्थ्य सुरक्षण समित्या रोगिभ्य अनावश्यक रूपेण अन्यत्रम् न प्रेषयितुम् अनुरुद्धमस्ति। स्वास्थ्य सुरक्षण समितौ आबद्धाभ्य सर्वाभ्य स्वास्थ्य संस्थाभ्य निर्देशनम् प्रदाय समित्या अनावश्यक रूपेण अन्यत्र न प्रेषयितुम् अनुरुद्धमस्ति। समितेः कार्यकारी निर्देशकः डॉ कृष्ण पौडेलः सेवा प्रदायक संस्थाभ्यः परिपत्रम् विधाय स्वकीयेषु चिकित्सालयेषु उपलब्धां सेवाम् उपेक्ष्य रोगिणः अनावश्यक रूपेण अन्यत्र न प्रेषयितुम् निर्दिष्टमस्ति इति असूचयत्। निर्देशकः डॉ पौडेलः चिकित्सालयेषु पर्याप्तेषु सेवा सौविध्येषु विद्यमानेष्वपि रोगिणाम् अनावश्यक रूपेण अन्यत्र सम्प्रेषणं विधीयते इति वेदना प्राप्तास्तित्यतः तथा न कर्तुं सर्वे चिकित्सालयाः निर्दिष्टाः सन्ति इति अज्ञापयत्। चितवन जनपदस्य भरतपुर नगरे गण्डकस्य आक्रमणेन एको जनो मृतोऽस्ति। मृतकः भरतपुर महानगरपालिकायाः तृतीयवडा क्षेत्रस्य पञ्चपञ्चाशत् वर्षीयः तेजबहादुर पाठकोऽस्ति इति प्रहरिणा ज्ञापितो वर्तते। ह्यः दिवागृहस्य समीपे मार्गे एव गण्डकस्य आक्रमणेन आहतस्य तस्य उपचारस्य क्रमे भरतपुरवर्तिनी चिकित्सालये मृत्युः सम्भूतोऽस्ति इति प्रहरिणा ज्ञापितं वर्तते।